अथ षष्ठोऽध्यायः कुमार उवाच अथ ते संप्रवक्ष्यामः सप्ताहश्रवणे विधिं सहायैर्वसुभिश्चैव प्रायः साध्यो विधिस्मृतः दैवज्ञं तु समाहूय मुहूर्तं पृच्छत्यत्नतः विवाहे यादृशं वित्तं तादृशं परिकल्पयेत् नभस्य आश्विनोर्जौ च मार्गशीर्षः शुचिर्नभाः एते मासः कथारम्भे श्रोतॄणां मोक्षसूचकाः मासानां विप्रहेयानि तानि त्याज्यानि सर्वथा सहायाश्चेतने तत्र कर्तव्यासोद्यमाश्च ये देशे देशे तथा सेयं वार्ता प्रेष्या प्रयत्नतः भविष्यति कथा चात्र आगन्तव्यं कुटुम्बिभिः दूरे हरिकथाः केचित् दूरे चाच्युतकीर्तनाः स्त्रियशूद्रादयो ये च तेषां बोधो यतो भवेत् देशे देशे विरक्ताये वैष्णवः कीर्तनोत्सुकाः तेष्वेव पत्रं प्रेष्यं च तल्लेखनमितीरितं सतां समाजो भविता सप्तरात्रं सुदुर्लभः अपूर्वरसरूपैव कथा चात्र भविष्यति श्रीभागवत पीयूषपानाय रसलम्पटाः भवन्तश्च तथा शीघ्रम् आयातप्रेमतत्पराः नावकाशः कदाचिच्चेत् दिनमात्रं तथापि तु सर्वथा गमनं कार्यम् क्षणोत्रैव सुदुर्लभः एवमाकारणं तेषां कर्तव्यं विनयेन च आगन्तुकानां सर्वेषां वासस्थानानि कल्पयेत् तीर्थे वापि वने वापि गृहे वाश्रवणं मतम् विशाला वसुधा यत्र कर्तव्यं तत्कथास्थलं शोधनं मार्जनं भूमेः लेपनं धातुमण्डनं गृहोपस्करमुद्धृत्य गृहकोणे निवेशयेत् अर्वाक्पञ्चाहतो यत्नात् आस्तीर्णानि प्रमेलयेत् कर्तव्यो मण्डपः प्रोच्चैः कदलीखण्डमण्डितः फलपुष्पदलैर्विश्ववितानेन विराजितः चतुर्दिक्षु ध्वजारोपः बहुसम्पद्विराजितः ऊर्ध्वं सप्तैव लोकाश्च कल्पनीयासविस्तरं तेषु विप्राविरक्ताश्च स्थापनीयाः प्रबोध्य च पूर्वं तेषामासनानि कर्तव्यानि यथोत्तरं वक्तुश्चापि तदा दिव्यम् आसनं परिकल्पयेत् उदं मुखो भवेद् वक्ता श्रोता वै प्राङ्मुखस्तदा प्राङ्मुखश्चेद् भवेद् वक्ता श्रोता चोदन्मुखस्तदा अथवा पूर्वदिग्नेया पूज्य पूजकमध्यतः श्रोतॄणामागमे प्रोक्ता देशकालादिको विदैः विरक्तो वैष्णवो विप्रः वेदशास्त्रविशुद्धिकृत् दृष्टान्तकुशलो धीरः वक्ता कार्योति निःस्पृहः अनेकधर्मविभ्रान्ताः स्त्रैणाः पाखण्डवादिनः शुकशास्त्रकथोच्चारे त्याज्यास्ते यदि पण्डिताः वक्तुः पार्श्वे सहायार्थम् अन्यस्थाप्यस्तथा विधः पण्डितः संशयच्छेत्ता लोकबोधनतत्परः वक्त्राक्षौरं प्रकर्तव्यं दिनादर्वाग्व्रताप्तये अरुणोदये सौ निर्वर्त्य शौचं स्नानं समाचरेत् नित्यं संक्षेपतः कृत्वा सन्ध्याद्यं स्वं प्रयत्नतः कथाविघ्नविघाताय गणनाथं प्रपूजयेत् पितॄन् सन्तर्प्य शुद्ध्यर्थं प्रायश्चित्तं समाचरेत् मण्डलं च प्रकर्तव्यं तत्र स्थाप्यो हरिस्तथा कृष्णमुद्दिश्य मन्त्रेण चरेत् पूजाविधिं क्रमात् प्रदक्षिणनमस्कारान् पूजान्ते स्तुतिमाचरेत् संसारसागरे मग्नं दीनं मां करुणानिधे कर्ममोहगृहीताङ्गं मामुद्धर भवार्णवात् श्रीमद्भागवतस्यापि ततः पूजा प्रयत्नतः कर्तव्या विधिना प्रीत्या धूपदीपसमन्विता ततस्तु श्रीफलं धृत्वा नमस्कारं समाचरेत् स्तुतिः प्रसन्नचित्तेन कर्तव्या केवलं तदा श्रीमद्भागवताख्योऽयं प्रत्यक्षः कृष्ण एव हि स्वीकृतोऽसि मया नाथ मुक्त्यर्थं भवसागरे मनोरथो मदीयोऽयं सफलः सर्वथा त्वया निर्विघ्नेनैव कर्तव्यः दासोऽहं तव केशव एवं दीनवचः प्रोच्य वक्तारं चाथ पूजयेत् सम्भूष्य वस्त्रभूषाभिः पूजां ते तञ्च संस्तवेत् शुकरूपप्रबोधज्ञ सर्वशास्त्रविशारद एतत्कथाप्रकाशेन मदज्ञानं विनाशय तदग्रे नियमः पश्चात् कर्तव्यश्रेयसे मुदा सप्तरात्रं यथाशक्त्या धारणीयः स एव हि वरणं पञ्चविप्राणां कथाभङ्गनिवृत्तये कर्तव्यं तैर्हरेर्जाप्यं द्वादशाक्षर विद्यया ब्राह्मणान् वैष्णवांश्चान्यान् तथा कीर्तनकारिणः नत्वा सम्पूज्य दत्तात्न्यः स्वयमासनमाविशेत् लोकवित्तधनागारपुत्रचिन्तां व्युदस्य च कथाचित्तशुद्धमतिः सलभेत् फलमुत्तमम् आसूर्योदयमारभ्य सार्धत्रिप्रहरान्तकं वाचनीया कथा सम्यक् धीरकण्ठं सुधीमता कथा विरामः कर्तव्यः मध्याह्ने घटिकाद्वयं तत्कथामनुकार्यं वै कीर्तनं वैष्णवैस्तदा मलमूत्रजयार्थं हे लघ्वाहारसुखावहः हविष्यान्नेन कर्तव्यः ह्येकवारं कथार्थिना उपोष सप्तरात्रं वै शक्तिश्चेच्छृणुयात्तदा घृतपानं पयःपानं कृत्वा वै शृणुयात्सुखं फलाहारेण वा भाव्यम् एकभुक्तेन वा पुनः सुखसाध्यं भवेद्यत्तु कर्तव्यं श्रवणाय तत् भोजनं तु वरं मन्ये कथाश्रवणकारकं नोपवासो वरः प्रोक्तः कथाविघ्नः करो यदि सप्ताहव्रतिनां पुंसां नियमान् शृणु नारद विष्णुदीक्षाविहीनानां नाधिकारः कथाश्रवे ब्रह्मचर्यमधः सुप्तेः पत्रावल्यां च भोजनं कथासमाप्तौ भुक्तिं च कुर्यान्नित्यं कथाव्रती द्विदलं मधुतैलं च गरिष्ठान्नं तथैव च भावदुष्टं पर्युषितं जह्यान्नित्यं कथाव्रती कामं क्रोधं मदं मारं मत्सरं लोभमेव च दम्भं मोहं तथा द्वेषं दूरयेच्च कथाव्रती वेदवैष्णवविप्राणां गुरुगोव्रतिनां तथा स्त्रीराजमहतां निन्दां वर्जयेद्यः कथाव्रती रजस्वलान्त्यजं म्लेच्छ पतितव्रात्यकैस्तथा द्विजाद्विड्वेदबाह्यैश्च नवदेद्यः कथाव्रती सत्यं शौचं दयां मौनम् आर्जवं विनयं तथा उदारमानसं तद्वद् एवं कुर्यात् कथाव्रती दरिद्रश्चक्षयी रोगी निर्भाग्यः पापकर्मवान् अनपत्यो मोक्षकामः शृणुयाच्च कथामिमाम् अपुष्पाकाकवं ध्याच वं ध्याया च मृतार्भका स्रवद्गर्भा च या नारी तया श्राव्या प्रयत्नतः एतेषु विधिना श्रावे तदक्षयतरं भवेत् अत्युत्तमा कथा दिव्या कोटियज्ञफलप्रदा एवं कृत्वा व्रतविधिं ఉద్యాపనమథాచరేత్. జన్మాష్టమీ వ్రతమివ కర్తవ్యం ఫలకాంక్షిభిః. అకించనేషు భక్తేషు ప్రాయో నోద్యాపనాగ్రహః. శ్రవణేనైవ పూతాస్తే నిష్కామా వైష్ణవాయతః. ఏవం నగాః యజ్ఞేస్మిన్ సమాప్తే శ్రోతృభిస్తదా పుస్తకస్య చ వక్తుశ్చ పూజా కార్యాతి భక్తితః. ప్రసాద తులసీమాలా శ్రోతృభ్యశ్చాథ దీయతాం. మృదంగతాల లలితం కర్తవ్యం కీర్తనంతతః. జయ శబ్దం నమః శబ్దం శంఖ శబ్దం చ కారయేత్. విప్రేభ్యో యాచకేభ్యోశ్చ విత్తమన్నం చ దీయతాం. విరక్తశ్చేద్ భవేత్ శ్రోతా గీతా వాచా పరేహని. గృహస్థశ్చేత్ తదా హోమః కర్తవ్యః కర్మ శాంతయే. ప్రతిశ్లోకం తు జుహుయాత్ విధినా దశమస్య చ. పాయసం మధుసర్పిశ్చ తిలానాదిక సంయుతం. అథవా హవనం కుర్యాత్ గాయత్ర్యాసు సమాహితః. తన్మయత్వాత్ పురాణస్య పరమస్య చ తత్వతః. హోమాశక్తౌ బుధో హౌమ్యం దద్యాత్ తత్ఫలసిద్ధయే. నానాచ్ఛిద్ర నిరోధార్థం న్యూనతాధికతానయోః. దోషయోః ప్రశమార్థం చ పఠిన్నామ సహస్రకం. తేన స్యాత్ సఫలం సర్వం నాస్త్యస్మాదధికం యతః. ద్వాదశ బ్రాహ్మణాన్ పశ్చాత్ భోజయేన్మధుపాయసైః. దద్యాత్ సువర్ణం ధేనుం చ వ్రతపూర్ణత్వ హేతవే. శక్తౌ ఫలత్రయమితం స్వర్ణసింహం విధాయ చ. తత్రాస్య పుస్తకం స్థాప్యం లిఖితం లలితాక్షరం. సంపూజ్యా వాహనాద్యైస్తత్ ఉపచారైస్స దక్షిణం. వస్త్రభూషణగంధాద్యైః పూజితాయ యతాత్మనే. ఆచార్యాయ సుధీర్దత్వా ముక్తస్యాద్భవబంధనైః. ఏవం కృతే విధానం చ సర్వపాపనివారణే. ఫలదం స్యాత్ పురాణం తు శ్రీమద్భాగవతం శుభం. ధర్మకామార్థమోక్షాణాం సాధనం స్యాన్న సంశయః. కుమారావోచః ఇతి తే కథితం సర్వం. కిం భూయ శ్రోతుమిచ్ఛసి? శ్రీమద్భాగవతేనైవ భుక్తిముక్తీకరే స్థితే. సూత ఉవాచ ఇత్యుక్త్వా తే మహాత్మానః ప్రోచుర్భాగవతీం కథాం. సర్వపాపహరాం పుణ్యాం భుక్తిముక్తిప్రదాయినీ. శృణ్వతాం సర్వభూతానాం సప్తాహన్నియతాత్మనాం. యథా విధితతో దేవం తుష్టువుః పురుషోత్తమం. तदन्ते ज्ञानवैराग्य भक्तीनां पुष्टतापरा तारुण्यं परमञ्चाभूत् सर्वभूतमनोहरं नारदश्च कृतार्थोऽभूत् सिद्धे स्वीये मनोरथे पुलकीकृतसर्वाङ्गः परमानन्दसम्भृतः एवं कथां समाकर्ण्य नारदो भगवत्प्रियः प्रेमगद्गदया वाचा तानुवाच कृताञ्जलिः नारद उवाच धन्योऽस्म्यनुगृहीतोऽस्मि भवद्भिः करुणापरैः अद्य मे भगवान् लब्धः सर्वपापहरो हरिः श्रवणं सर्वधर्मेभ्यः वरं मन्ये तपोधनाः वैकुण्ठस्थो यतः कृष्णः श्रवणाद्यस्य लभ्यते सूत उवाच एवं ब्रुवति वै तत्र नारदे वैष्णवोत्तमे परिभ्रमन् समायातः शुको योगेश्वरस्तदा तत्राययौ षोडशवार्षिकस्तदा व्यासात्मजोज्ञानमहाभिचन्द्रमाः कथावसाने निजलाभपूर्णः प्रेम्णा पठन् भागवतं शनैः शनैः दृष्ट्वा सदस्याः परमोरुतेजसं सद्यः समुत्थाय ददुर्महासनम् प्रीत्या सुरर्षिस्तमपूजयत्सुखं स्थितो वदत्संशृणुतामलाङ्गिरम् श्रीशुक उवाच निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रवसंयुतं पिबत भागवतो रसमालयम् मुहुरहो रसिका भुवि भावुकाः धर्मः प्रोज्झितकैतवोऽत्र परमः निर्मत्सराणां सतां वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः सद्यो हृद्यवरुध्यते त्रकृतिभिः शुश्रूषुभिस्तत्क्षणा श्रीमद्भागवतं पुराणतिलकं यद्वैष्णवानां धनं यस्मिन् पारमहंस्यमेवमलम् ज्ञानं परङ्गीयते यत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्यमाविष्कृतं तच्छृण्वन् प्रपठन् विचारणपरः भक्त्या विमुच्येन्नरः भक्त्या विमुच्येन्नरः स्वर्गे सत्ये च कैलासे वैकुण्ठे नास्त्यं रसः अतः पिबन्तु सद्भाग्या मामा मुञ्चत कर्हि चेत् सूत उवाच एवं ब्रुवाणे सति बादरायण मध्ये सभायां हरिराविरासीत् प्रह्लादमल्युद्धवफाल्गुनादिभिः वृतसुरर्षिस्तमपूजयच्च तां दृष्ट्वा प्रसन्नं महदासने हरिं ते चक्रिरे कीर्तनमग्रतस्तदा भवो भवान्या कमलासनस्तु तत्रागमत् कीर्तन दर्शनाय प्रह्लादस्तालधारी तरलगतितया चोद्धवः कांस्यधारी वीणाधारी सुरर्षिस्वरकुशलतया रागकर्तार्जुनो भूत् इन्द्रो वादी मृदङ्गं जय जय सुकराः कीर्तने ते कुमाराः यत्राग्रे भाववक्ता सरसरचनया व्यासपुत्रो बभूव ननर्तमध्ये त्रिकमेव तत्र भक्त्यादिकानां नटवत्सु तेजसाम् अलौकिकं कीर्तनमेतदीक्ष्य हरिः प्रसन्नोऽपि वचो ब्रवीतत् मत्तो वरं भाववृताद्वृणुध्वं प्रीतः कथा कीर्तनतोऽस्मि साम्प्रतं श्रुत्वेति तद्वाक्यमतिप्रसन्नाः प्रेमार्द्रचित्ता हरिमूचिरेते नगाः गाथासु च सर्वभक्तैः एभिस्त्वया भाव्यमिति प्रयत्नात् मनोरथोऽयं परिपूरणीयः तथेति चोक्त्वान्तरधीयताच्युतः ततो नमस्तच्चरणेषु नारदः तथा शुकादीनपि तापसांश्च अथ प्रहृष्टाः परिनष्टमोहाः सर्वे ययुः पीतकथामृतास्ते भक्तिसुताभ्यां सह रक्षिता सा शास्त्रे स्वकीयेऽपि तदाशुकेन अतो हरिर्भागवतस्य सेवनात् चित्तं समायाति हि वैष्णवानां दारिद्र्यदुःखज्वरदाहितानां मायापिशाची परिमर्दितानां संसारसिन्धौ परिपातितानां क्षेमाय वै भागवतं प्रगर्जते शौनक उवाच शुकेनोक्तं कदा राज्ञे गोकर्णेन कदा पुनः सुरर्षये कदा ब्राह्मैः छिन्धि मे संशयं द्विमं सूत उवाच आकृष्णनिर्गमात्त्रिंशत् वर्षाधिकगते कलौ नवमीतो नभस्ये च कथारम्भं शुको करो परीक्षिच्छ्रवणान्ते च कलौ वर्षशतद्वये शुब्धेषु च नवम्यां च धेनुजो कथयत्कथां तस्मादपि कलौ प्राप्ते त्रिंशद्वर्षगते सति ऊचुरूर्जे सिते पक्षे नवम्यां ब्रह्मणः सुताः इत्येतत्ते समाख्यातं यत्पृष्टोऽहं त्वया नघ कलौ भागवती वार्ता भवरोगविनाशिनी कृष्णप्रियं सकलकल्मषनाशनं च मुक्त्येकहेतुमिह भक्तिविलासकारी सन्तः कथानकमिदं पिबतादरेण लोके हि तीर्थपरिशीलनसेवया किं स्वपुरुषमपि वीक्ष्य पाशहस्तं వదతి యమః కిల తస్య కర్ణమూలే పరిహర భగవత్ కథాసు మత్తాన్ ప్రభురహమన్యనృణాన్న వైష్ణవానాం. అసారే సంసారే విషయ విషసంగాకులధియః క్షణార్ధం క్షేమార్థం పిబత శుకగాథా తులసుధాం. కిమర్థం వ్యర్థం భో వ్రజత కుపథే కుత్సిత కథే పరీక్షిత్ సాక్షీయత్ శ్రవణగతముక్త్యుక్తి కథనే రసప్రవాహ సంస్థేన శ్రీశుకేనేరితా కథా కంఠే సంబధ్యతే యేన స వైకుంఠ ప్రభుర్భవే. ఇతి చ పరమగుహ్యం సర్వసిద్ధాంతసిద్ధం సపది నిగదితంతే శాస్త్రపుంజం విలోక్య జగతి శుకకథాతో నిర్మలం నాస్తి కించిత్ పిబ పరసుఖహేతోర్ద్వాదశస్కంధసారం. ఏతాయోనియతతయా శృణోతి భక్త్యా యశ్చైనాం కథయతి శుద్ధవైష్ణవాగ్రే తౌ సమ్యక్ విధికరణాత్ ఫలం లభేతే యాథార్థ్యాన్న హి భువనే కిమప్యసాధ్యం. ఓం తత్సత్. ఇతి శ్రీ పద్మపురాణే ఉత్తరఖండే శ్రీమద్భాగవత మహాత్మ్యే శ్రవణ విధి కథనం నామ షష్ఠోఅధ్యాయః సమాప్తమిదం. శ్రీమద్భాగవత మహాత్మ్యం. హరి ఓం తత్సత్. హరయే నమః. హరయే నమః. హరయే నమః. సదా సర్వత్ర గోవింద నామ సంకీర్తనం. గోవింద గోవింద నారాయణ అఖిల గురు భగవన్ నమస్తే.